मानातीत प्रतित विभवाम् मङ्गलम् मङ्गलानाम् वक्षः पीठीम् मधुविजयिनो भूषयन्तीम् स्वकान्त्या प्रत्यक्षानुस्रविकमहिम प्रार्थिनीनाम् प्रजानाम् श्रेयो मूर्तिम् श्रियमशरणस्त्वाम् शरण्याम् प्रपद्ये मानातीत प्रतिथ विभवाम् मङ्गलम् मङ्गलानाम् वक्षः पीठीम् मधुविजयिनो भूषयन्तीम् स्वकान्त्या प्रत्यक्षानुस्रविकमहिम प्रार्थिनीनाम् प्रजानाम् श्रेयो मूर्तिम् श्रियमशरणस्त्वाम् शरण्याम् प्रपद्ये आविर्भावः कलश जलधावद्वरे वापि यस्याः स्थानम् यस्या सरसि जवनम् विष्णुवक्षस्थलम् वा भूमा यस्या भुवनमखिलम् देवि दिव्यम् पदम् वा तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथम् त्वम् स्तोतव्यत्वम् दिशति भवति देहिभिः स्तूयमाना त्वामेव त्वामनितरगतिस्तोतुमासम् समानः सिद्धारम्भः सकल भुवनश्लाघनीयो भवेयम् सेवापेक्षा तव चरणयो श्रेयसे कस्य न स्यात् यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषाम् जन्मस्थेम प्रलयरचना जङ्गमा जङ्गमानाम् तत्कल्याणम् किमपि यमिनामेकलक्ष्यम् समाधौ पूर्णम् तेजस्फुरति भवति पादलाक्षारसाङ्कम् निष्प्रत्यूह प्रणय घटितम् देवि नित्यानपायम् विष्णुस्त्वम् चेत्यनवधिगुणम् द्वन्द्वमन्योन्यलक्ष्यम् शेषश्चित्तम् विमलमनसा मूलयश्च श्रुतेन सम्पद्यन्ते विहरणविधौ यस्य सय्या विशेषाः उद्देश्य त्वम् जननि भजतो रुज्जितोपाधिगन्धम् प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् पद्मे पत्यस्तव च निगमैर्नित्यमन्विष्यमाणो नावच्छेदम् भजति महिमा नर्तयन्मानसम् नः पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देन सार्धम् मध्ये कृत्य त्रिगुणफलकम् निर्मितस्थानभेदम् विश्वादीश प्रणयिनि सदा विभ्रमत्यूतवृत्तौ ब्रह्मे साध्या ददति युवयो राक्षसार प्रचारम् अस्येषाना त्वमसि जगतः संश्रयन्ती मुकुन्दम् लक्ष्मीः पद्मा जलधितनया विष्णुपत्नी निरेति यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो नावर्तन्ते दुरितपवन प्रेरिते जन्मचक्रे त्वामेवाहुः कतिचिदपरे त्वत्प्रियम् लोकनाथम् किम् तैरन्तः कलहमलिनैः किञ्चिदुत्तीर्यमग्नैः त्वत्सम्प्रीत्यै विहरति हरौ सम्मुखीनाम् श्रुतीनाम् भावारूढो भगवति युवाम् दम्पती दैवतम् नः आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः आचख्युस्त्वाम् प्रियसहचरीमैकमत्योपपन्ना प्रादुर्भावैरपि समतनु प्राध्वमन्वीयसे त्वम् दूरोक्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः धत्ते शोभाम् हरिमरकते तावकी मूर्तिराध्या तन्वी तुङ्गस्तनभरणता तप्तजाम्बूनदाभा यस्याम् गच्छन् युदय विलयैर्नित्यमानन्द सिन्धौ इच्छा वेगोल्लसितलहरी विभ्रमम् व्यक्तयस्ते आसंसारम् विततमखिलम् वाङ्मयम् यद्विभूतिः यद्भ्रूभङ्गात् कुसुमधनुषः किम् करो मेरुधन्वा यस्याम् नित्यम् नयन शतकैरेकलक्ष्यो महेन्द्रः पद्मे तासाम् परिणतिरसौ भावलेशैस्त्वदीयैः अग्रे भर्तुः सरसि जमये भद्रपीठे निषण्णाम् अम्भोरासैरधिगतसुधा सम्प्लवाधुत्थिथाम् त्वाम् पुष्पासारस्थकित भुवनै पुष्कलावर्तकाध्यैः क्लप्तारम्भा कनक कलसैरभ्यषिञ्चन् गजेन्द्राः अग्रे भर्तुः सरसि जमये भद्रपीठे निषण्णाम् अम्भोरासैरधिगत सुधा सम्प्लवादुत्थिताम् त्वाम् पुष्पासारस्थकित भुवनै पुष्कलावर्तकाद्यैः क्लप्तारम्भा कनक कलसैरभ्यषिञ्चन् गजेन्द्राः आलोक्य त्वाम् अमृत सहजे विष्णुवक्षस्थलस्था शापाक्रान्ता शरणमगमन् सावरोधा सुरेन्द्राः लब्ध्वा भूयस्त्रिभुवनमिदम् लक्षितम् त्वत्कटाक्षैः सर्वाकारस्थिरसमुदयाम् सम्पदम् निर्विशन्ति आर्तत्राणव्रतिभिरमृता सारनीलाम्बुवाहैः अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः यस्याम् यस्याम् दिशि विहरते देवि दृष्टस्त्वदीया तस्याम् तस्यामहमहमिकाम् तन्वते सम्पदोघाः योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तम् धर्मम् प्राप्तुम् प्रथममिह ये धारयन्ते धनायाम् तेषाम् भूमे धनपति गृहादम्बरादम्बुधेर्वा धारा निर्यान्त्यधिकमधिकम् वाञ्छितानाम् वसूनाम् श्रेयस्कामाः कमलनिलये चित्रमाम् नाय वाचाम् चूडापीडम् तव पदयुगम् चेतसा धारयन्तः छत्रच्छाया सुभगशिरसश्चामरस्मेरपार्श्वाः श्लाघा शब्दश्रवणमुदिता स्वर्गिणः सञ्चरन्ति ऊरीकर्तुम् कुशलमखिलम् जेतुमादीनरातीन् दूरीकर्तुम् दुरितनिवहम् त्यक्तुमाद्याम विद्याम् अम्बस्तम्बावधिकजनन ग्राम सीमान्तरेखाम् आलम्बन्ते विमलमनसो विष्णुकान्ते दयान्ते जाता काङ्क्षा जननि युवयोरेकसेवाधिकारे मायालीडम् विभवमखिलम् मन्यमानास्तृणाय प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्गप्रशमनफलम् वैदिकम् धर्मसेतुम् सेवे देवि त्रिदश महिला मौलिमालार्चितम् ते सिद्धिक्षेत्रम् शमित विपदाम् सम्पदाम् वादपद्मम् यस्मिन्नेषन्नमित शिरसो यापयित्वा शरीरम् वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः तानुप्रास प्रकटितदयैः सान्द्रवात्सल्यदिग्धैः अम्बस्निग्धैरमृतलहरे लब्धस ब्रह्मचर्यैः घर्मेतापत्रय विरचिते गाढतत्तम् क्षणम् मा आकिञ्चन्यग्लपितमनघैराद्रयेथा कटाक्षैः सम्पद्यन्ते भवभयतमी भानवस्त्वत्प्रसादात् भावा सर्वे भगवति हरो भक्तिमुद्वेलयन्तः याचे किम् त्वामहमिह यतः शीतलोदारशीला भूयो भूयो दिशसि महताम् मङ्गलानाम् प्रबन्धान् माता देवि त्वमसि भगवान् वासुदेव पिता मे जातः सोऽहम् जननि युवयोरेकलक्ष्यम् दयायाः दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वम् किम् ते भूय प्रियमिति किल स्मेरवक्त्रा विभासि कल्याणानाम् अविकलनिधिः कापि कारुण्यसीमा नित्यामोदा निगमवचसाम् मौलिमन्दारमाला सम्पद्दिव्या मधुविजयिनः सन्निधत्ताम् सदा मे सैषा देवी सकलभुवन प्रार्थना कामधेनुः कल्याणानाम् अविकलनिधिः कापि कारुण्यसीमा नित्यामोदा निगमवचसाम् मौलिमन्दारमाला सम्पद्दिव्या मधुविजयिनः सन्निधत्ताम् सदा मे सैषा देवी सकलभुवन प्रार्थना कामधेनुः उपचित गुरुभक्तेरुत्थितम् वेङ्कटेशात् कलिकलुषनिवृत्त्यै कल्पमानम् प्रजानाम् ಸರಸಿಜ ನಿಲಯಾಯ ಸ್ತೋತ್ರ ಮೇತತ್ ಪಠಂತಃ ಸಕಲ ಕುಶಲ ಸೀಮಾಃ ಸಾರ್ವಭೌಮಾ ಭವಂತಿ ಉಪಚಿತ ಗುರು ಭಕ್ತೇರುತ್ಥಿತಂ ವೆಂಕಟೇಶಾತ್ ಕಲಿಕಲುಷ ನಿವೃತ್ಯೈ ಕಲ್ಪಮಾನಂ ಪ್ರಜಾನಾಂ ಸರಸಿಜ ನಿಲಯಾಯ ಸ್ತೋತ್ರ ಮೇತತ್ ಪಠಂತಃ ಸಕಲ ಕುಶಲ ಸೀಮಾ ಸಾರ್ವಭೌಮಾ ಭವಂತೇ.